यस्या दक्षिणभागकेदशभुजा काली कराला स्थिता यद्वामे च सरस्वती वसुभुजा भाति प्रसन्नानना यत्पृष्ठे मिथुनत्रयं च पुरतः यस्या हरिस्सौरिभः ताम् अष्टादशबाहुम् अम्बुजगताम् लक्ष्मीं स्मरेन्मध्यगा लं पृथिव्यात्मकम् अर्पयामि रुचिरं गन्धम् हम् अभ्रात्मकम् पुष्पं यं मरुदात्मकं च सुरभिं धूपं विदूतागमं रं वन्यात्मकदीपकं वम् अमृतात्मानं च नैवेद्यकम् मातर्मानसिकान् गृहान् रुचिरान् पञ्चोपचारान् अमूने कल्पान्ते भुजगादिपं मुररिपौ आस्तीर्य निद्रामिते सञ्जातौ मधुकैटभौ सुररिपु तत्कर्णपिञ्जूषतः दृष्ट्वा भीतिभरान्वितेन विधिना या संस्तुता घातयत् वैकुण्ठेन विमोह्यतौ भगवती ताम् अस्मि काळीं भजे या पूर्वं महिषासुरार्दिदसुरोदन्तश्रुतिप्रोत्थित क्रोधव्याप्तशिवादिदेवतनुतः निर्गत्य तेजोमयी देवप्राप्तसमस्तवेषरुचिरा सिंहेन साघं सुरद्वेष्टॄणां कदनं चकारनितरां ताम् अस्मि लक्ष्मीं भजे सैन्यं नष्टम् अवेक्ष्य चिक्षुरमुखा योद्धुं ययुर्येधतां हत्वा शृङ्गकुरास्य पुच्छवलनैः त्रस्तत्रिलोकी जनम् आक्रम्य प्रपदेन तं च महिषं शूलेन कण्ठे भिनत् या मद्यारुणनेत्रवक्त्रकमला ताम् अस्मि लक्ष्मीं भजे ब्रह्मा विष्णुमहेश्वरौ च गदितुं यस्याः प्रभावं बलं नालं सा परिपालनाय जगतोऽस्माकं च कुर्यान्मतिम् इत्थं शक्रमुखैस्तुता अमरगणैः या संस्मृता पद्मजं हन्तास्मीति वरं ददौ अतिशुभं ताम् अस्मि लक्ष्मीं भजे भूयशुम्भनिशुम्भपीडितसुरैः स्तोत्रं हिमाद्रौ कृतं श्रुत्वा तत्र समागते शरमणि देहात् अभूत् कौशिकी यानै जग्रहणेरिताय सुरचित् दूताय सङ्घाम्रणे योजेता सपतिर्ममेत्य कथयत् ताम् अस्मि लक्ष्मीं भजे तद्धूतस्य वचो निशम्य कुपितः शुम्बोदयं प्रेषयन् केशाकर्षणविह्वलां बलयुतः ताम् आनयेति ध्रुवम् दैत्यं भस्मचकार धूम्रनयनं हुङ्कारमात्रेण या तत्सैन्यं च जगानयन् मृगपतिः ताम् अस्मि वाणीं भजे चण्डं मुण्डयुतं च सैन्यसहितं दृष्ट्वागतं संयुगे काल्या भैरवया ललाटफलकात् उद्भूतया घातयत् तौ आदाय समागतेत्यतचया तस्या प्रसन्ना सती चामुण्डेत्यभिधां व्यदा त्रिभुवने तामस्मि वाणीं भजे श्रुत्वा संयदि चण्डमुण्डमरणं शुम्भो निशुम्भोन्वितः क्रुद्धस्तत्र समेत्य सैन्यसहितः चक्रेद्भुतं संयुगम्। ब्रह्मण्यादियुतारणे बलपतिं या रक्तबीजासुरं चामुण्डा परिपीतशेषम् अवदीत् तामस्मि वाणीं भजे दृष्ट्वा रक्तजनुर्वदं प्रकुपितौ शुम्भो निशुम्भोऽप्युभौ चक्राते तुमुलं रणं प्रतिभयं नानास्त्रशस्त्रोत्करैः तत्राद्यं विनिहत्य मूर्छितमलं चित्त्वा निशुम्भं शिरः खड्गेनैनम् अपातयत् सपदिया तामस्मि वाणीं भजे शुम्भं भ्रातृवदात् अतीव कुपितं दुर्गे त्वम् अन्याश्रयात् गर्भिष्टा भवमेत्युदीर्य सहसा युध्यन्दम् अत्युत्कटम् एकैवास्मि न चापरेति वचति भित्त्वा च शूलेन या वक्षस्येन अपातयद्भुवि बलात् तामस्मि वाणीं भजे दैत्येऽस्मिन् निहते अनलप्रभृतिभिः देवैस्तुता प्रार्थिता सर्वार्तिप्रशमाय सर्वजगतः स्वीयारिनाशाय च बाधादैत्यजनिर्भविष्यति यदा तत्रावतीर्य स्वयं दैत्यान्नाशयिष्याम्यहं वरम् अदात् तामस्मि वाणीं भजे यच्चैतच्चरितत्रयं पठति न तस्येदते सन्दतिः धान्यं धर्मधनादिकं च विपदा सद्यश्च नाशो भवेत् इत्युक्त्वान्तरधीयत स्वयम् अहो या पूजिता प्रत्यहं वित्तं धर्ममतिं सुतांश्च ददते तामस्मि वाणीं भजे वेदाब्र अवनिसंमिता नवरसा वर्णाब्दितुल्याकर आम्नायानन्दकरेन्दवो युगकराः शैलद्वयोन्यङ्गकाः चन्द्राम्बोधिसमाः भुजान् अलमिता बाणेशवोब्जार्णव आनन्दद्वन्द्वसमा इतीव कथिता अध्याय मन्त्राक्रमात्।